इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः कृष्णप्रसादोपाध्यायः आदौ मुख्य वार्ताः अद्य मध्यप्रदेशस्य इन्दौर जनपदे केन्द्रीय गृहमन्त्रिणा अमितशाहेन प्रदेशस्य सर्वेष्वपि पञ्चपञ्चाशत् जनपदेष् प्रधानमन्त्री उत्कृष्ट महाविद्यालयानां शुभारम्भो विहितः। प्रधानमन्त्री नरेन्द्रमोदी अमेरिकादेशस्य प्राक्तन राष्ट्रपतेः ट्रम्पस्योपरि कृताक्रमणं कठोरतया निन्दयन् उक्तवान् यत् राजनीतौ लोकतन्त्रे च हिंसायाः स्थानं नास्ति। ओडिशायाः पुरीक्षेत्रस्य भगवतः श्रीजगन्नाथमन्दिरस्य रत्नभण्डारस्य उद्घाटनं षट्चत्वारिंशत् वर्षानन्तरं पुनः जायते। टेनिस क्रीडायाः विम्बल्डनाख्ये संघर्षे विश्वस्य द्वितीयक्रमांकस्य क्रीडकः नोवाक जोकोविचः गतसत्रस्य पुरुष एकलस्य विजेत्रा कार्लोस अल्कराज इत्यनेन सह शीर्षपुरस्काराय क्रीडिष्यति। अपि च यूरोपीय पादकन्दुकक्रीडायाः यूरो कप इत्यस्याः स्पर्धायाः अन्तिमं चक्रम् अद्य रात्रौ वर्लिनक्षेत्रे भारतीय समयानुसारं सार्धद्वादशवादने इंग्लैण्ड स्पेनयोर्मध्ये क्रीडिष्यते। अथ वार्ताः विस्तरेण गृहमन्त्रिणा अमितशाहेन अद्य इन्दौर जनपदे एक पेड़ मा के नाम इत्यस्य अभियानस्य शुभारम्भो विहितः। ध्यातव्यमस्ति यत् इन्दौर जनपद द्वारा एकस्मिन्नेव दिवसे एकादश लक्ष वृक्षाणां रोपणं कृत्वा वैश्विक कीर्तिमतः स्थापना करिष्यते। अवसरेऽस्मिन् श्री अमितशाहः उक्तवान् यत् इन्दौर जनपदः एकेन स्वच्छ नगरेण सहैव एकं हरितनगरमपि भवति। अग्रे गृहमन्त्री उक्तवान् यत् प्रधानमन्त्रिणा श्रीनरेन्द्रमोदिना कथितमस्ति यत् अस्माभिः यूनां कृते हरित पर्यावरणस्य सौविध्यं दातव्यमिति। एतदर्थम् एव अस्माभिः देशे पञ्चविंशत्यधिक द्विसहस्राब्द पर्यन्तं पेट्रोल इत्यस्मिन् विंशति प्रतिशत परिमितं एथेनॉल संयोजनस्य निर्णयो गृहीतोऽस्ति। सर्वकारेण जलवायु परिवर्तन कोष इत्यस्य संघटनस्य आरम्भोऽपि विहितोऽस्ति। गृहमन्त्री प्रोक्तवान् यत् देशे पर्यावरण विभागस्य स्थापना सर्वप्रथमं गुजरात राज्ये प्रधानमन्त्रिणा श्रीमोदिना एव कृता आसीत्। मन्त्री अमितशाहः उक्तवान् यत् मध्यप्रदेशः भारतस्य श्वासकोषः वर्तते। अत्र एकविंशतिप्रतिशत परिमितं वनाच्छादित क्षेत्रम् अस्ति। मध्यप्रदेशः पर्यटनक्षेत्रेऽपि नूतनमानकानां स्थापनां करोति। कार्यक्रमोऽयं मुख्यमन्त्रिणा डॉ मोहन यादव इत्यनेनापि सम्बोधितः। अस्मिन् अवसरे नैकाः केन्द्रीयमन्त्रिणः मन्त्रिणः सांसदाः जनप्रतिनिधयश्च सम्मिलिताः आसन्। अवसरेऽस्मिन् केन्द्रीय गृहमन्त्रिणा अमितशाहेन प्रदेशस्य सर्वेष्वपि पञ्चपञ्चाशत् जनपदेष् प्रधानमन्त्री उत्कृष्ट महाविद्यालयानाम् उद्घाटनमपि कृतम्। अद्य अस्मिन् कार्यक्रमे सर्वेऽपि वरिष्ठनेतारः मुख्यमन्त्र्यादयश्च उपस्थिताः आसन्। अमेरिकादेशस्य प्राक्तन राष्ट्रपतेः ट्रम्पस्योपरि कृताक्रमणं कठोरतया निन्दयन् प्रधानमन्त्री मोदी सामाजिक प्रसारतन्त्रजाले अलिखत् यत् राजनीतौ लोकतन्त्रे च हिंसायाः स्थानं नास्ति। प्रधानमन्त्री ट्रम्पं प्रति शीघ्र सुस्वास्थ्यस्य शुभकामनामपि प्रकटितवान्। अग्रे प्रधानमन्त्रिणा उक्तं यत् भारतीय जनानां प्रार्थनाः शुभाशंसाश्च व्रणितेभ्यः जनेभ्यः सन्ति येन सर्वेऽपि शीघ्रतया सुस्वास्थ्यं लभेयुरिति। श्री ट्रम्पः अमेरिकायाः पेनीसिल्वानिया क्षेत्रस्य बटलर इति स्थाने भुसुण्डिकया गुलिकाप्रहारेण आहतोऽस्ति। गतरात्रौ जातायां दुर्घटनायां एकः सामान्य नागरिकः एकश्च भुसुण्डिधर्ता निहतः। ट्रम्पेन आरक्षिवर्गस्य त्वरित सहायतायै तेभ्यः साधुवादाः सन्ति प्रेषिताः। अमेरिकायाः राष्ट्रपतिना जो बाइडेन इत्यनेनापि ट्रम्पस्य रक्षणाय आभारभावाः सन्ति प्रकटिताः। संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव कार्यक्रमोऽयम् आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। ओडिशायाः पुरीक्षेत्रस्य भगवतः श्रीजगन्नाथमन्दिरस्य रत्नभण्डारस्य द्वाराणाम् उद्घाटनप्रक्रिया अद्य अपराह्णे 28:00 आरब्धा। एकेन विशेषदलेन रत्नभण्डारस्य आन्तरिकद्वाराणाम् उद्घाटनं कारयिष्यते। इतः प्राक् 85:29 ख्रीष्टाब्दे द्वारमिदं समुद्घाटितमासीत्। अखिलो हि देशः रत्नभण्डारान्तर्गतानि रत्नानि बहुमूल्य आभूषणानि प्रति औत्सुक्येन दर्शनार्थं ज्ञानार्थञ्च प्रतीक्षारतः वर्तते। न्यायं यावत् पूर्णतः प्रापणाय नवोन्मेषी समाधान प्रारूपाय च दिशा इत्याख्यः कार्यक्रमः अस्य मासस्य 16 प्रयागराजनगरे भविष्यति। कार्यक्रमोऽयं भारतीय संविधानस्य स्वीकरणाय भारतीय गणतन्त्रस्य 75-वर्षपूर्तावधौ उत्सवत्वेन च परिपाल्यते। अभियानस्यास्य उद्देश्यं वर्तते यत् संविधानाभिज्ञानस्य वरिवर्धनेन सह न्याय्याधिकारेषु अभिरुच्यभिवर्धनं चेति। आयोजनकाले नागरिकाणां सहयोगाभिवर्धनाय हमारा संविधान हमारा सम्मान इत्याख्यं वेबफलकमपि अस्ति समुद्घाटितम्। फलकमिदं ज्ञानागाररूपेण कार्यं करिष्यति। यो हि नागरिकेभ्यः संविधानविषये न्याय्याधिकारविषये च जागरूकताभिवर्धनेन सह सारल्येन जनान्तं यावत् ज्ञानस्य प्रापणमपि सुकरं कारयिष्यति। लोकसभाध्यक्षः ओम बिडलाः रूसदेशस्य मास्कोनगरे भारतीय प्रवासिनः सम्बोधयन् सबलं प्रोक्तवान् यत् विदेशस्थाः भारतीयाः भारतस्य विकासाय तस्य आधुनिकीकरणाय च अभिन्नाः भागधेयाः सन्ति। तेन राष्ट्रनिर्माणे निरतान् प्रवासिनः प्रति कार्तज्ञभावान् प्रकटयता प्रोक्तं यत् एते प्रवासिनः रूसदेशे भारतस्य राजदूतरूपेण स्थित्वा स्वकार्याचरणैः योगदानादिभिश्च रूसे भारतस्य छविं सम्मार्जयन्तः सन्तीति। शुक्रवासरे भूस्खलनत्वात् द्वयोः बसयानयोः त्रिशूलीति नद्यां पतनेन प्रवाहितानां 5 शवाः लब्धाः। ह्यः नारायणी नद्यां लब्धानां 3 शवानामपि स्पष्टता संजातास्ति। वार्तेयं नेपालपक्षतः आसीत्। अन्ते क्रीडावार्तासु टेनिस क्रीडायाः विम्बल्डनाख्ये संघर्षे विश्वस्य द्वितीयक्रमांकस्य क्रीडकः नोवाक जोकोविचः अद्य संध्यायां कश्चित्कालानन्तरं लैण्डन इति क्षेत्रे गतसत्रस्य पुरुष एकलस्य विजेत्रा कार्लोस अल्कराज इत्यनेन सह क्रीडिष्यति। विम्बल्डन इत्यस्य अन्तिमे संघर्षे अल्कराजस्य एषा द्वितीया उपस्थितिः अस्ति। तत्रैव सर्बिया देशस्य जोकोविचः 7 विजयं लब्धवान् अस्ति। सम्प्रति जोकोविचः रोजर फेडरर इत्यस्य 8 साम्यं कर्तुमिच्छति। मिश्रितयुगलानाम् अन्तिमे चक्रे जान जिलिन्स्की अथ हसिह सुवेई इत्यनयोः 7 युगलः अद्यैव सायं सेंटियागो गोंजालेज अथ ग्यु लियाना ओल्मोस इत्यमू विरुध्य क्रीडिष्यति। यूरोपीय पादकन्दुकक्रीडायाः यूरोकप इत्यस्याः स्पर्धायाः अन्तिमं चक्रम् अद्य रात्रौ वर्लिनक्षेत्रे भारतीय समयानुसारं 12:30 इंग्लैण्ड स्पेनयोर्मध्ये क्रीडिष्यते, यत्र स्पेनदेशः वारचतुष्टयं जेतुमिच्छति। तत्रैव इंग्लैण्डदेशः प्रथमजयाय संघर्षं करोति। अन्यैकस्मिन् कोपा अमेरिकाख्ये पादकन्दुकखेले अर्जेण्टिना कोलम्बिया च देशौ भारतीय समयानुसारं श्वः प्रातः 5:30 संघर्षं करिष्यतः। अन्ते मुख्य वार्ताः पुनरेकवारम्। अद्य मध्यप्रदेशस्य इन्दौर जनपदे केन्द्रीय गृहमन्त्रिणा अमितशाहेन प्रदेशस्य सर्वेष्वपि 55 जनपदेषु प्रधानमन्त्री उत्कृष्ट महाविद्यालयानां शुभारम्भो विहितः। प्रधानमन्त्री नरेन्द्र मोदी अमेरिकादेशस्य राष्ट्रपतेः ट्रम्पस्योपरि कृताक्रमणं कठोरतया निन्दयन् उक्तवान् यत् राजनीतौ लोकतन्त्रे च हिंसायाः स्थानं नास्ति इति वार्ताः।